उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं भक्तावासं स्मरिन्नित्यं मायुः कामार्थसिद्धये वक्रतुण्डञ्च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटमेव च नवमं बालचंद्रं च दशमं तु विनायकं एकादशं गणपतिं द्वादशं तु गजाननम्
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः नच विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो
धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्
मोक्षार्थी लभते गतिम्
गणपति स्तोत्रम् षट्भिर्मासैः फलम् लभे संवत्सरेण सिद्धिम् च लभते नात्र संशयः
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः
इति श्री नारद पुराणे संकष्टनाशनम् नाम श्री गणपति स्तोत्रम् संपूर्णम्।